अस्य रुद्रस्य प्रश्नस्य अनष्टोच्छन्दस्य अघोरर्हिः अमृतानष्टोच्छन्दः सङ्गर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषस एष रुद्रो देवतः अग्निक्रतुचरमायामिष्टिकायागम् रुद्रजपे विनियोगः सकलस्य रुद्राध्यायस्य परमेष्टे ऋषिः एका गायत्री छन्दः तिस्रो नष्टुभः तिस्र पङ्क्तयः सप्तानष्टुभो द्वे जगत्यो श्रीरुद्रो देवता समस्तपापक्षयार्थे साम्ब सदाशिवप्रीत्यर्थे जपे विनियोगः ॐ अग्निहोत्रात्मने अङ्गुष्टिकाभ्याम् नमः दर्शपूर्णमासात्मने तर्जनीभ्याम् नमः चातुर्मास्यात्मने मध्यमाभ्याम् नमः निरूढपशुबन्धात्मने अनामिकाभ्याम् नमः ज्योतिष्टोमात्मने कनिष्ठिकाभ्याम् नमः सर्वक्रत्वात्मने करतलकरभ्रष्टाभ्याम् नमः ॐ अग्निहोत्रात्मने हृदयाय नमः दर्शपूर्णात्मात्मने शिरसे स्वाहा चातुर्मासात्मने शिखायै भूषण निरूढपशुबन्धात्मने कवचाय हुम् ज्योतिष्टोमात्मने नेत्राभ्याम् ओषट सर्वकृत्वात्मने पट ॐ भूर्भुवस्वरोम् इति दिग्बन्धः ध्यानम् ॐ आपातानलभस्तलान्तभुवन ब्रह्माण्डमाविस्फुरत् ज्योतिष्पाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृते अस्तोकाप्लुतमेकमेशमनिशम् रुद्रानुवाकाञ्जपन् ज्याये दीप्सितसिद्धये ध्रुवपदम् विप्रोऽभिषिञ्चेच्छिवम् ब्रह्माण्डव्याप्तदेह भसितहिमरुचा भासमाना भुजङ्गैः कण्ठे कालाकबद्धा कलितशशिकला चण्डकोदण्डहस्ताः त्र्यक्षारुद्राक्षवोषा प्रणतभयहरा शाम्भवा मूर्तिवेदा रुद्रा श्रीरुद्रसूक्ता प्रकटितविभवा न प्रयच्छन्तु सौख्यम् शुद्धस्फटिकसङ्काशम् शुद्धविद्याप्रदायकम् शुद्धम् सच्चिच्चिदानन्दम् सदाशिवमहम् भजे ॐ नमो भगवते रुद्राय हरिः ॐ
नमस्ते
रुद्रमन्यव उतोत इषवे नमः नमस्ते अस्तु धन्मने बाहुभ्यामुतते नमः यात इष शिवतमा शिवम् बभूवते धनुः शिवा शरव्या यातवतया नो रुद्रमृडया याते रुद्रशिवा तनोर्घोरा पापकाशिनी तया नस्तनुवाशन्तमया गिरिशन्ताभि चाकशी यामिषम् गिरिशन्तहस्ते बिभर्षस्तवे शिवाङ्गिरित्रताम् कुरु माहिगुम् से पुरुषम् जगत् शिवे नवचसा त्वा गिरिशाच्चा वदामसि यथा नः सर्वमिज्जगदयश्मगम् सुमना असत् अद्य वोचदधि भक्ता प्रथमो देव्योऽभिषक् अहिकश्च सर्वाञ्जम्भयः सर्वाञ्च यातु धान्यः असो यस्ताम्रो अरुण उदभ्रस्व मङ्गलः एतेमागम् रुद्र अवितो दिक्षुश्रिता सहस्रशो वैशागम् हेडयीमहे असो यो वसर्पति नीलग्रीवो विलोहितः उदैनम् गोप अदृशन्नदृशन्नुदहार्यः उदैनम् विश्वाभूतानि स दृष्टो मृणयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीडुषे अथो ये अस्य सत्त्वा नोहन्तेभ्यो करन् नमः प्रमुञ्चदन्वनस्त्वमुभयो रात्रिर्योज्याम् याश्च ते हस्त इषवपरात भगवो वप अवदत्यदनुस्त्वगम् सहस्राक्षसतेषु ते निशीर्य शल्यानाम् मुखा शिवो नः सुमना भव विद्यम् धनुः कपर्दिनो विशल्यो बाणभागम् उतः अनेशन्नस्येष व आपुरस्य निषङ्गतिः याते हेतिर्मीडुष्टमहस्ते बभूवते दनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते अस्त्वायुधायान तताय धृष्णवे उभाभ्यामुतते नमो बाहुभ्याम् तव दन्वने परिते दन्वनो हेतिरस्मान् ऋणक्तो विश्वतः अतो य इषुरिस्तभारे अस्मिन्निधेहितम् ॐ नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकालाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीशङ्कराय श्रीमन्महादेवाय नमः ॐ नमो हिरण्यवाहवे सेनान्ये दिशाञ्जपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सत्पिञ्जराय त्विषीमदेवतीनाम् पतये नमो नमः बभ्रुषाय दिव्यादिनान्नाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्ये जगताम् पतये नमो नमो रुद्राय तदा विने क्षेत्राणाम् पतये नमो नमः सोताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायोषधीनाम् पतये नमो नमः उच्चैर्घोषाय क्रन्दयते वत्तीनाम् पतये नमो नमः क्रस्तभीताय दावते सत्त्वनाम् पतये नमः ॐ नमः सहमानाय निव्याजिन आव्याजिनीनाम् पतये नमो नमः ककुबाय निषङ्गिणे तेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः सृकाभ्यो जिगागम् सद्योमुष्णताम् पतये नमो नमो श्रीमद्भ्यो नक्तञ्चरद्भ्यः प्रकृन्दानाम् पतये नमो नम उष्णेशिने गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो दन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिददानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृदद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठ द्भ्यो दावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॐ नमः व्यादिनेभ्यो विविद्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रगम् हतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदेभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदेभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यक्षुल्लकेभ्यश्च वो नमो नमो रतेभ्यो रतेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यस्येनानेभ्यश्च वो नमो नमः क्षत्रभ्यः सङ्ग्रहेतृभ्यश्च वो नमो नमस्तक्षद्भ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यो कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमः इषुकृद्भ्यो दन्वकृद्भ्यश्च वो नमो नमः मृगयुभ्यश्वरेभ्यश्च वो नमो नमो नमः श्वभ्यश्वपदेभ्यश्च वो नमः ॐ नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च श्रीकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिबिभित्ताय च नमो मेडुष्टमाय केशवते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवद् ध्वने च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नमः ऊर्म्याय च वस्वन्याय च नमः स्रोतस्याय च दीप्याय च ॐ नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च अपगल्भाय च नमो जघन्याय च वज्ञियाय च नमः सोऽव्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः ऊर्वर्याय च कल्याय च नमः श्लोक्याय च अवसान्याय च नमो वन्याय च कक्षाय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुरेणाय चाशुरथाय च नमः शूराय च विन्धते च नमो वर्मिणे च वरोतिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च ॐ नमो दुन्दुभ्याय च हनन्याय च नमो द्रष्टवे च प्रभृषाय च नमो दूताय च प्रहिताय च नमो निषङ्गिने चेषु धिमते च नमस्ते शेषवे चायुजिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च पत्याय च नमः काट्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्त्याय च नमः कोप्याय वट्याय च नमो वर्षाय च नमो मेघ्याय च विद्युत्याय च नमः ईद्रियाय च तप्याय च नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुवाय च ॐ नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च वशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वदाय च दूरे वदाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस्तीर्थ्याय च कुल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाद्याय च नमः षष्प्याय च वेण्याय च नमः सिकत्याय च प्रभाक्याय च ॐ नमः हिरण्याय च प्रपत्याय च नमः किगुंशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्सये च नमो गोष्ठाय च गृह्याय च नमः स्थल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ऊर्व्याय च सौम्याय च नमः पर्णाय च पर्णशद्याय च नमोपगुरमाणाय चाभिघ्नते च नमः आखिदते च प्रखिदते च नमो वक्किरिकेभ्यो देवानागं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः अनिर्हतेभ्यो नमः आमीवत्केभ्यः ॐ द्रापे अन्धसत्पते दरिद्रन्नीलोहिता येषाम् पुरुषाणामेषाम् पशूनामाभिर्मारोमो येषाम् किञ्चनाममत् याते रुद्रशिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागम् रुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा न शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रोतनो वयस्कृदि क्षयद्वीराय नमसा विधेमते यत्यञ्जयोश्च मधुरायजे पिता तदश्याम तव रुद्रप्रणीतो मानो महान्तमुतमानो अर्भकम् मानवोक्षन्तमुतमानवोक्षितम् मानवदे पितरम् मोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषु रीरिषः वीरान्मानो रुद्रभामितोर्वधिर्हविष्मन्तो नमसा विधेमते आराते गोग्नभुतपोरुषग्ने क्षयद्वीराय सुम्नमस्मेते अस्तु रक्षा च नो अदित देव भ्रोक्यदा च न शर्म यच्च दिवरः स्तुहि श्रुतम् गर्त सदम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृडा चरित्रे रुद्रस्तवानो अन्यन्ते अस्मिन्निव पन्तु सेनाः परिणो रुद्रस्य हेतिर्वृणक्त परित्रेणस्य दुर्मतिरगायोः अवस्थिरामगवद्भ्यस्तनुष्वमेढ्वस्तोकायतनयाय मृणया मेढष्टम शिवतम शिवो नः सुमनः भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा न आचर पिनाकम् बिभ्रदागैः विकिरिध विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगम् हेतयोन्यमस्मिन्निव बन्धुता सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीजानो भगवः पराचीना मुखाकृति सहस्राणि सहस्रशो ये रुद्रादिभूम्याम् तेजागम् सहस्रयोजने वदन्वानि तन्मसि अस्मिन्महत्यर्णवे अन्तरिक्षे भवादि नीलग्रीवाशिधिकण्ठा शर्वा अदक्षमाचरा नीलग्रीवाशिधिकण्ठादिवगम् रुद्रा उपश्रिता ये वृक्षेषु षट्पिञ्जरा नीलग्रीवा विलोहिता ये भूतानावधिपतयो विधिकासक्कबर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपतो जनान् ये पथाम् पतिरक्षय ऐलभृदा यव्युधः ये तीर्थानि प्रचरन्ति सुकापन्तो निषङ्गिनः य एतावन्तश्च भूयागंसश्च दिशो रुद्रावितश्चिरे तेजागम् सहस्रयोजने वदन्मानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् ये एन्तरिक्षे ये दिव्येषावन्नम् वातो वर्षविधवत्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रदेचेर्दशो दिचेर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु तेयम् देष्मो यश्च नो द्वेदितम् भोजम् भे ददामि नमस्ते रुद्रतम् भोजम् भे ददामि ॐ सर्वो वै रुद्रस्तस्मै रुद्राय नमो अस्तु पुरुषो वै रुद्रस्तन्महो नमो नमः विश्वम् भूतम् भुवनम् चित्रम् बहुधा जातम् जायमानम् जयत् सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु कद्रुद्राय प्रचेतसे मेढष्टमाय तव्यसे ओचे मषन्तमृणे सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु त्र्यम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् मृत्योर्मक्षीयमामृतात् एष ते रुद्रभागस्तम् जुषस्वतेन वसेन परो मोजवतोऽतीह्यवसदन्वापि नाकहस्तकृत्तिवासाः रदगम् सत्यम्बरम् ब्रह्म पुरुषम् कृष्णपिङ्गलम् ओद्वरेतम् विरोपाक्षम् विश्वरूपाय वै नमो नमः ॐ नमो हिरण्यबाहवे हिरण्यवर्णाय हिरण्यरूपाय हिरण्यपतयेऽम्बिकापतय उमापतये पशुपतये नमो नमः सद्यो जातम् प्रपद्यामि सद्यो जाताय वै नमो नमः भवे भवे नाति भवे भवस्व माम् भवोद्भवाय नमः वामदेवाय नमो ज्येष्ठाय नमः श्रेष्ठाय नमो रुद्राय नमः कालाय नमः कलविकर्णाय नमो बलविकर्णाय नमो बलाय नमो बलप्रमथनाय नमः सर्वभूतदमनाय नमो मनोन्मनाय नमः अघोरे एभ्यो तघोरे एभ्यो घोरघोरतरेभ्यः सर्वे एभ्यः सर्वसर्वे एभ्यो नमस्ते अस्तु रुद्ररूपेभ्यः तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपति ब्रह्मणोऽधिपति ब्रह्मा शिवो मे अस्तु सदा शिवो
हरिः ॐ अग्ना विष्णो सजोषा सेमा वर्दन्तु वाङ्गियः जुम्नेर्वाजेभिरागतम्
वाजश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे सुवश्च मे प्राणश्च मे पानश्च मे व्यानश्च मे सुश्च मे चित्तञ्च महाधीतञ्च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रञ्च मे दक्षश्च मे बलञ्च मवोजश्च मे सहश्च म आयुश्च मे जरा च म आत्मा च मे तनुश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्थानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठञ्च म आधिपत्यञ्च मे मन्युश्च मे वामश्च मे मश्च मेऽम्भश्च मे जेमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धञ्च मे वृद्धिश्च मे सत्यञ्च मे श्रद्धा च मे जगश्च मे धनञ्च मे वशश्च मे त्विषिश्च मे क्रीडा च मे मोदश्च मे ज्ञातञ्च मे जरिष्यमाणञ्च मे सूक्तञ्च मे सुकृतञ्च मे वित्तञ्च मे वेद्यञ्च मे भूतञ्च मे भविष्यच्च मे सुगञ्च मे सुभतञ्च मरुद्दञ्च मरुद्यश्च मे क्लृप्तञ्च मे क्लृप्तिश्च मे मतिश्च मे सुमतिश्च मे शञ्च मे मयश्च मे प्रियञ्च मे नु कामश्च मे कामश्च मे सोमनसश्च मे भद्रञ्च मे श्रेयश्च मे वस्यश्च मे यशश्च मे भगश्च मे द्रविडञ्च मे यन्ता च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वञ्च मे महश्च मे संविच्च मे ज्ञात्रञ्च मे सुश्च मे प्रसोश्च मे सीरञ्च मे लयश्च मरुतञ्च मे मृतञ्च मे यस्मञ्च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वञ्च मे न मित्रञ्च मे भयञ्च मे सुगञ्च मे शयनञ्च मे सोषा च मे सुधिरञ्च मे ऊर्च मे सोमृता च मे पयश्च मे रसश्च मे घृतञ्च मे मधु च मे सग्निश्च मे सपीतिश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रञ्च महोद्भिद्यञ्च मे रयिश्च मे रायश्च मे पुष्टञ्च मे पुष्टिश्च मे विभुच मे प्रभुच मे बहुच मे भूयश्च मे पूर्णञ्च मे पूर्णतरञ्च मे क्षितिश्च मे कूयवाश्च मेऽन्नञ्च मे क्षुश्च मे व्रीहश्च मे यवा आश्च मे माषा आश्च मे तिला आश्च मे मुद्गा आश्च मे खल्वा आश्च मे गोधूमा आश्च मे मसुरा आश्च मे प्रियङ्गवश्च मेणवश्च मे श्यामाका आश्च मे निवारा आश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यञ्च मे यश्च मे शीसञ्च मे त्रपुश्च मे श्यामञ्च मे लोहञ्च मे अग्निश्च महापश्च मे विरुदश्च महोषधयश्च मे कृष्णपच्चञ्च मे कृष्णपच्चञ्च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ता वित्तञ्च मे वित्तिश्च मे भूतञ्च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मेऽर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पोषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे शिनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षञ्च म इन्द्रश्च मे योश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशुश्च मे रश्मिश्च मे राभ्यश्च मेधिपतिश्च म उपागुंशुश्च मेन्द्रियामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्त्री च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुदुग्रहश्च मे तिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्र्यश्च मे सारस्वतश्च मे पोष्णश्च मे पात्येवतश्च मे हरियोजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे दृष्ट्याश्च मे श्रुतश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म ఉపరవాశ్చ మే దిశవణే చ మే ద్రోణ కలశశ్చ మే వాయవ్యాని చ మే పోత వృచ్చ మహాధవనీయశ్చ మే ఆగ్నేయేంద్రం చ మే అభిర్దానం చ మే గ్రహాశ్చ మే సదశ్చ మే పురోడాశాశ్చ మే పజతశ్చ మే వ్రతశ్చ మే స్వగాకారశ్చ మే ఓం అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే స్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యోశ్చ మే శక్వరే రంగులయోదిశశ్చ మే యజ్ఞేన కల్పంతామృత్చ మే సామ చ మే స్తోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్య బృహద్రతంతరే చ మే యజ్ఞేన కల్పేతామ్. ఓం గర్భాశ్చ మే వసాశ్చ మే త్రవిశ్చ మే త్రివీ చ మే దిత్యవాచ మే దిత్యోహి చ మే పంచావిచ్చ మే పంచావీ చ మే త్రివసశ్చ మే త్రివసా చ మే తుర్యవాచ మే తుర్యోహి చ మే షష్టవాచ మే షష్టోహి చ మూషా చ మే వషా చ మర్షభశ్చ మే వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మాయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతామ పానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాగం శ్రోత్రం యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం. ఓం ఏకా చ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మేకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మయేక విగుంశతిశ్చ మే త్రయో విగుంశతిశ్చ మే పంచ విగుంశతిశ్చ మే సప్త విగుంశతిశ్చ మే నవ విగుంశతిశ్చ మయేక త్రిగుంశచ్చ మే త్రయస్త్రిగుంశచ్చ మే చతస్రశ్చ మేష్టౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంశతిశ్చ మే చతుర్విగుంశతిశ్చ మేష్టా విగుంశతిశ్చ మే ద్వాత్రిగుంశచ్చ మే షత్రిగుంశచ్చ మే చత్వారిగుంశచ్చ మే చతుశ్చత్వారిగుంశచ్చ మేష్టా చత్వారిగుంశచ్చ మే వాజశ్చ ప్రసవశ్చ పిజశ్చ క్రతుశ్చ సువశ్చ మూర్ధా చ విష్ణ్యశ్చాంచాయనశ్చాంత్యశ్చ భువనశ్చ భువనశ్చాధిపతిశ్చ. ఓం ఇడా దేవ హోర్మనుర్యజ్ఞని బృహస్పతిరుక్తామదాని శగం శిషద్విశ్వే దేవాసోక్తవాచ పృథివీమా తర్మా మాహిగంసే మధుర్మనిష్యే మధుజనిష్యే మధు వక్ష్యామి మధు వదిష్యామి మధుమతి దేవేభ్యో వాచ ముద్యాసగం శుశ్రూషేణ్యా మనుష్యేభ్యస్తం మా దేవా అవంతు శోభాయై పితరో నుమదంతో సహనావవతు సహనో భునక్తు సహ వీర్యం కరవావహై తేజస్వినావధీతమస్తు మా విద్విషావహై. ఓం శాంతి శాంతి శాంతిః. హరిః ఓం.
అత శ్రీ సూక్తం. శ్రీగురుభ్యో నమః. హరిః ఓం. హిరణ్యవర్ణాం హరిణీం సువర్ణరజతస్రజాం చంద్రాం హిరణ్మయీం లక్ష్మీం జాతవేదో మావహ తాం మావహ జాతవేదో లక్ష్మీర్మనపగామినీం యస్యాం హిరణ్యం మిందేయం గామశ్వం పురుడానహం అశ్వపూర్వామ్రతమధ్యాం హస్తినాద ప్రబోధినీం శ్రియం దేవీముపక్వయే శ్రీమా దేవీ జుషతాం కాం సోస్మితాం హిరణ్యప్రాకారామార్ద్రాం జ్వలంతీం ద్రప్తాం దర్పయంతీం పద్మే స్థితాం పద్మవర్ణాంతామిహోపక్వయే శ్రియం చంద్రాం ప్రభాసాం యశసా జ్వలంతీం శ్రియం లోకే దేవజుట్టాముదారాం తాం పద్మినీమీం శరణమహం ప్రపద్యే లక్ష్మీర్మే నశ్యతాం త్వాం వృణే. ఆదిత్యవర్ణే తపసోధిజాతో వనస్పతిస్తవ వృక్షోత బిల్వః तस्य बलानितपसानुदन्तो मायान्तरायाश्च वाक्या लक्ष्मीः उपैतु माम् देव सखकीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् ददातु मे श्रुत्पिपासामलाम् ज्येष्ठामलक्ष्मीन्नाडयाम्यहम् अभूतिमसमृद्धिम् च सर्वाम् निर्णुद मे गृहात् गन्धद्वारान् दुराधर्षाम् नित्यपुष्टाङ्गरीषिणीम् ईश्वरीकम् सर्वभूतानाम् दामिहो भक्वये श्रियम् मनसः काममाकोतिम् वाचः सत्यमशीमहि पशूनाम् रूपमन्नस्य मयि श्रीश्रयताम् यशः कर्दमेन प्रजा भूता मयि सम्भव कर्दम श्रियम् वासय मे कुले मातरम् बद्धमालिनीम् आपसृजन्तु सिग्धानि जिक्ले तव समे गृहे निज देवीम् मातरम् श्रियम् वासय मे कुले आर्द्राम् पुष्करिणीम् पुष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः आर्द्राम् यःकरिणीम् यष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावः ताम् महावह जातवेदो लक्ष्मीर्मनपगामिनीम् यस्याम् हिरण्यम् प्रभूतम् गावो दाश्वोऽश्वान्विन्देयम् पुरुडानहम् यशुजि प्रयतो भूत्वा जुहुयादाज्यमन्वहम् श्रियः पञ्चदशर्चम् च श्रीकामः सततम् जपेत् पद्मानने पद्मभूरो पद्माक्षी पद्मसम्भवे त्वम् माम् भजस्व पद्माक्षी येन सौख्यम् लभाम्यहम् अश्वदायी गोदायी धनदायी महाधने धनम् मे जुषताम् देवि सर्वकामांश्च देहि मे पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षी विश्वप्रिये विष्णुमनोनुकूले त्वत्पादपद्मम् मयि सन्निधस्व पुत्रपौत्रधनम् धान्यम् हस्त्यश्वादिगवेरतम् प्रजानाम् भवसि माता आयुष्मन्दम् करोतु माम् धनमग्निर्धनम् वायुर्धनगम् सूर्यो धनम् वसुः धनमिन्द्रो बृहस्पतिर्वरुणम् धनमश्नुते वैनते यसोमम् बिभ सोमम् बिभतुरुत्रः सोमम् धनस्य सोमिनो मह्यम् ददातु सोमिनः न क्रोधो न च मात्सर्यम् न लोभो न शुभामतिः भवन्ति कृतपुण्यानाम् भक्तानाम् श्रीसोक्तम् जपे सदा सरसिजनिलये सरोजहस्ते धवलतराम् शुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् विष्णुभक्तीम् क्षमाम् देवीम् माधवीम् माधवप्रियाम् लक्ष्मीम् प्रियसखीम् देवीम् नमाम्यच्युत वल्लभाम् महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् श्रीवर्चस्वमायुष्यमारोग्यमविधाच्चोभमानम् महीयते धान्यम् धनम् पशुम् बहुपुत्रलाभम् शतसंवत्सरम् दीर्घमायुः श्रिये जातश्रिया निरीयाय श्रियम् वयोजनितृभ्यो ददातु श्रियम् वसाना अमृतत्वमायन्भजन्ति सद्यः सविता विदद्योन् श्रिय एवैनम् तच्छ्रियमादधाति सन्ततमृजावषर्कृत्यम् सन्धत्तम् सन्धीयते प्रजया पशुभिः य एवम् वेद ॐ महादेव्ये च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मी प्रचोदयात् हरिः ॐ। అత పురుష సూక్తం.
శ్రీ గురుభ్యో నమః హరిః ఓం. సహస్రశీర్ష పురుష సహస్రాక్ష సహస్రపాద్ సభూమిం విశ్వతో వృత్వా అత్యతిష్టద్దశాంగులం పురుష ఏవేదగం సర్వం యద్భూతం యచ్చ భవ్యం ఉతామృతత్వస్యేషానః యదన్నేనాతిరోహతే ఏతావానస్య మహిమా. అతోజ్యాయాంగుశ్చ పురుషః పాదోస్య విశ్వభూతాని త్రిపాదస్యామృతం దివి. త్రిపాదోర్ద్వౌధేత్పురుషః పాదోస్యేహ భవత్పునః తతో విశ్వం వ్యక్రామత్ సాషనానశనే అభి. తస్మాద్విరాడజాయత విరాజో అధిపురుషః స జాతో అత్యరిచ్యత. పశ్చాద్భో విమథో పురః యత్పురుషేణ హవిషా దేవా యజ్ఞమతన్వత. వసంతో అస్యాసీదాజ్యం గ్రీష్మ యజ్ఞ శరద్ధవిః సప్తాస్యాసన్ పరిదయః త్రిసప్త సమిధక్రతాః దేవాయజ్ఞం తన్మానాః అవద్ధన్ పురుషం వశం తం యజ్ఞం బరిహిషి ప్రోక్షన్ పురుషం జాతమగ్రతః. తేన దేవా అయజంత సాధ్యార్షయశ్చ యే తస్మాదజ్ఞాః సర్వహుతః సంవృతం మృడదాజ్యం పశోగుంహాం చక్రే వాయవ్యాన్ అరణ్యాన్ గ్రామ్యాంశ్చ యే తస్మాదజ్ఞాః సర్వహుతః రజస్సామాని జజ్ఞిరే చందాగంసి జజ్ఞిరే తస్మాత్ యజస్తస్మాదజాయత తస్మాదశ్వా అజాయంత ఏకే చో భయాదతః గావోహ జజ్ఞిరే తస్మాత్ తస్మాజ్జాత అజావయః యత్పురుషం వ్యదదుః కథిదా వ్యకల్పయన్ ముఖం కిమస్య కౌ బాహు కావోరూపాదా ఉచ్యేతే. బ్రాహ్మణో అస్య ముఖమాసీత్ బాహోరాజన్యకృతః ఓరు తదస్య యద్వైష్యః పద్వ్యాగం శోద్రో అజాయత చంద్రమా మనసో జాతః చక్షాః సూర్యో అజాయత ముఖాదింద్రశ్చాగ్నిశ్చ ప్రాణాద్వాయురజాయత నాభ్యాసీదంతరిక్షం శేష్ణోద్యోః సమవర్తత. పద్భ్యాం భూమిర్దిశ శ్రోత్రాత్ తథా లోకాగం అకల్పయన్ వేదాహమేతం వరుణం మహాంతం ఆదిత్యవర్ణం తమసస్తు పారే సర్వాణి రూపాణి విచిత్య ధీరః నామాని కృత్వాభివదన్యదాస్తే దాతా పురస్తాద్యముదా జహార శక్ర ప్రవిద్వాన్ ప్రతిశశ్చ తస్రః తమేవం విద్వానమృతైహోతి నాన్యపంత అయనాయ విద్యతే యజ్ఞేన యజ్ఞమయజంత దేవాః తాని ధర్మాణి ప్రథమాన్యాసన్ తే హనాకం మహిమానః సచంతే. యత్ర పూర్వే సాధ్యాః సంతి దేవాః అద్భ్యః సంభూతః పృథివీరసాశ్చ విశ్వకర్మణః సమవర్తతాధి తస్య త్వష్టా విదద్రూపమేతి. తత్పురుషస్య విశ్వమాజానమగ్రే వేదాహమేతం వరుణం మహాంతం ఆదిత్యవర్ణం తమసః పరస్తాత్ తమేవం విద్వానమృత ఇహ భవతి
नान्यपन्ता विद्यते अयनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीरा परिजानन्ति योनिम् मरीचीनाम् हतमिच्छन्ति वेदसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुजाय ब्राह्मये रुजम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यत्त्वैवम् ब्राह्मणो विद्यात् तस्य देव असन्वशे ह्रेश्च ते लक्ष्मीश्च पत्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम् इष्टम् मनिषाण अमुम् मनिषाण सर्वम् मनिषाण ॐ शान्तिः 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 हरिः ॐ ऋग्वेदीय अग्निसूक्तम्
श्रीगुरुभ्यो नमः हरिः ॐ अग्निमीळे पुरोहितम् यज्ञस्य देवमृत्विजम् होतारम् रत्नदातामम् अग्निपूर्वे बिर्षिभिरीढ्यो नूतानैरुता स देवाङ्गेह वक्षति अग्निना रैमष्णवत्पोषामेव दिवे दिवे यशसं वीरवत्तमम् अग्नेयम् यज्ञमध्वरम् विश्वतः परिभूरसि सै देवेषु गच्छति अग्निरुहोता कविक्रातुः सत्यश्चित्तश्रावस्तमः देवो देवेभिरागामत् यदङ्गदाशुषे त्वमग्ने भद्रम् करिष्यसि तवेतः सत्यमङ्गिरः उपत्वाग्ने दिवे दिवे दोषावस्तद्धिया वयम् नमो भरन्त एमासि राजन्तमध्वराणाम् गोपामृतस्य देवीम् वर्धामानम् स्वेदमे सनपि देवा सूरविघ्ने सोपायनो भाव स च स्वारस्वस्तये
हरिः ॐ अथ पञ्चामृतसूक्तानि
श्रीगुरुभ्यो नमः हरिः ॐ आप्याय स्वसमेतु ते विश्वतः सोमवृष्ण्यम् भवावाजस्य सङ्गते ॐ दधिक्रावणो अकारिषम् जिष्णोरश्वस्य वाजिनाः सुरभिनो मुखा करत्रण आयोंषितारिषत् ॐ घृतम् मीमिक्षे घृतमस्य यो निर्घृते श्रितो घृतम् अस्य धाम अनश्वदमावाहमादयस्य स्वाहा घृतम् मृडभवक्षि हव्यम् ॐ मधुवाता आरताय ते मधुक्षरन्ति सिन्धावः माद्वेर्नः सन्तोषादि मधुनत्ता मृजोषसो मधुमत्पार्थिवम् व्रजाः मधुद्योरस्तु न पिता मधो मान्नो वनस्पतिर्मधो माङ्गस्तु सूर्याः माद्वीर्गावो भवन्तु नः ॐ स्वादुपावस्व दिव्याय जन्माने स्वादुरिन्द्राय सुहवेतु नाम्ने स्वादुर्मित्राय वरुणाय वायवे बृहस्पताये मधो माङ्गदाभ्यः ॐ या फलिनीर्या फला पुष्पायाश्च पुष्पिणेः बृहस्पतिर्प्रसोतास्ता मुञ्चन्तुम् हासः ॐ मा बोहिष्ठा मायो भुवस्तानावोर्जे दाधातना महेरणाय चक्षासे यो वः शिवतामोरसस्तस्या भाजयते हनाः उषतेरेव मातरः तस्मा अरङ्गमामवो यस्य क्षया यजिन्वाथ आपो जनयाता च नः
हरिः ॐ अथ मन्त्रपुष्पम्
श्रीगुरुभ्यो नमः हरिः ॐ योपां पुष्पं वेद पुष्पवान् प्रजावान् पशुमान् भवति चन्द्रमा वा अपामुष्पम् पुष्पवान् प्रजावान् पशुमान् भवति य एवं वेद योपामायतनं वेद आयतनवान् भवति अग्निर्वा अपामायतनम् आयतनवान् भवति योऽग्नेरायतनं वेद आयतनवान् भवति आपो वा अग्नेरायतनम् आयतनवान् भवति य एवं वेद योऽपामायतनं वेद आयतनवान् भवति वायुर्वा अपामायतनम् आयतनवान् भवति यो वायोरायतनं वेद आयतनवान् भवति आपो वै वायोरायतनम् आयतनवान् भवति य एवं वेद योऽपामायतनं वेद आयतनवान् भवति असौ वै तपन्नपामायतनम् आयतनवान् भवति योऽमुष्यतपत आयतनं वेद आयतनवान् भवति आपो वा अमुष्यतपत आयतनम् आयतनवान् भवति य एवं वेद योऽपामायतनं वेद आयतनवान् भवति चन्द्रमा वा अपामायतनम् आयतनवान् भवति यश्चन्द्रमस आयतनं वेद आयतनवान् भवति आहो वै चन्द्रमस आयतनम् आयतनवान् भवति य एवं वेद योऽपामायतनं वेद आयतनवान् भवति नक्षत्राणि वा अपामायतनम्
आयतनवान् भवति
यो नक्षत्राणामायतनं वेद आयतनवान् भवति आपो वै नक्षत्राणामायतनम् आयतनवान् भवति य एवं वेद योऽपामायतनं वेद आयतनवान् भवति पर्जन्यो वा अपामायतनम् आयतनवान् भवति यः पर्जन्यस्यायतनं वेद आयतनवान् भवति आपो वै पर्जन्यस्यायतनम् आयतनवान् भवति य एवं वेद योऽपामायतनं वेद आयतनवान् भवति संवत्सरो वा अपामायतनम् आयतनवान् भवति यः संवत्सरस्यायतनं वेद
आयतनवान् भवति
आपो वै संवत्सरस्यायतनम् आयतनवान् भवति य एवं वेद योऽप्सुनाभं प्रतिष्ठितां वेद प्रत्येव तिष्ठते ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ
अथ विष्णुसूक्तम्।
ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ. ಹರಿ ಓಂ. ಅಥೋ ದೇವಾವಂತು ನೋ ಯಥೋ ವಿಷ್ಣುರ್ವಿಚಕ್ರಮೇ ಪೃಥಿವ್ಯಾ ಸಪ್ತಧಾಮಭಿಃ ಇದಂ ವಿಷ್ಣುರ್ವಿಚಕ್ರಮೇ ತ್ರೇತಾನಿ ದಾದೇ ಪದಂ ಸಮೋಳ್ಳವಸ್ಯ ಬಾಂಸುರೇ ತ್ರೀಣಿ ಪದ ವಿಚಕ್ರಮೇ ವಿಷ್ಣುರ್ಗೋಪಾದಾಭ್ಯಃ ಅಥೋ ಧರ್ಮಾಣಿ ಧಾರಯನ್ ವಿಷ್ಣೋ ಕರ್ಮಾಣಿ ಪಶ್ಯತ ಯಥೋ ವ್ರತಾನಿ ಪಸ್ಪಶೇ ಇಂದ್ರಸ್ಯ ಯುಜ್ಯಃ ಸಖಾ ತದ್ವಿಷ್ಣೋ ಪರಮಂ ಪದಂ ಸದಾ ಪಶ್ಯಂತಿ ಸೂರಯಃ ದಿವೇವ ಚಕ್ಷುರಾತಾತಂ ತದ್ವಿಪ್ರಾಸೋ ವಿಪನ್ಯವೋ ಜಾಗೃವಾನ್ ಸಸಮಿಂಧತೆ ವಿಷ್ಣಾರ್ಯತ್ಪಾರಮಂ ಪದಂ. ಹರಿ ಓಂ.
ಅಥ ಆಶೀರ್ವಾದ ಮಂತ್ರಃ.
ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ. ಹರಿ ಓಂ. ಭದ್ರಂ ಕರ್ಣೇಭಿಃ ಶೃಣುಯಾಮದೇವ ಭದ್ರಂ ಪಶ್ಯೇ ಮಾಕ್ಷಭಿರ್ಯಜತ್ರ ಸ್ಥಿರೈರಂಗೇ ಸುಷ್ಟುವಾಂ ಸಸ್ತನೋಭಿರ್ವ್ಯಾಶೇಮ ದೇವಹಿತಂ ಯದಾಯೋಃ ದ್ರವಿಣೋದಾದ್ರವಿಣಸ್ತುರಸ್ಯ ದ್ರವಿಣೋದಾಸನಾರಸ್ಯ ಪ್ರಿಯಂ ಸತ್ ದ್ರವಿಣೋದಾ ವೀರವತೇ ಮಿಷನ್ ನೋ ದ್ರವಿಣೋದಾರಾಸತೇ ದೀರ್ಘಮಾಯೋಃ ಸವಿತಾ ಪಶ್ಚಾತಾ ಸವಿತಾ ಪುರಸ್ತಾ ಸವಿತೋತ್ತರಾತಾ ಸವಿತಾ ದರಾತಾತ್ ಸವಿತಾನ ಸುವತು ಸರ್ವತಾತಿಂ ಸವಿತಾನೋ ರಾಸತಾಂ ದೀರ್ಘಮಾಯೋಃ ನವೋ ನವೋ ಭವತಿ ಜಾಯಮಾನೋನ್ನಾಂ ಕೇತುರುಷಸಾ ಮೇತ್ಯಗ್ರಂ ಭಾಗಂ ದೇವೇಭ್ಯೋ ವಿದಾದಾತ್ಯಾಯನ್ ಪ್ರಚಂದ್ರಮಾ ಸ್ಥಿರತೆ ದೀರ್ಘಮಾಯೋಃ ಉಚ್ಚಾದಿವಿದಕ್ಷೇಣಾವಂತೋ ಅಸ್ತುರ್ಯೇ ಅಶ್ವದಾ ಸಹತೆ ಸೂರ್ಯೇಣಾಂ ಹಿರಣ್ಯದಾಮೃತತ್ವಂ ಭಾಜಂತೆ ವಾಸೋದಾ ಸೋಮಪ್ರತಿರಂತ ಆಯೋಃ ಆಪಾವುಂದಂತು ಜೀವಸೇ ದೀರ್ಘಾಯತ್ವಾಯ ವರ್ಚಾಸೇ ಯಸ್ತ್ವಾ ಹೃದಾ ಕೀರಿ ನಾಮನ್ಯಮಾನೋ ಅಮರ್ತ್ಯಂ ಮರ್ತ್ಯೋ ಜೋಹವೀಮಿ ಜಾತಾ ವೇದೋ ಯಶೋ ಅಸ್ಮಾಸು ದೇಹಿ ಪ್ರಜಾಭಿರಗ್ನೇ ಅಮೃತತ್ವಮಶ್ಯಾಂ ಯಸ್ಮೈ ತ್ವಂ ಸುಕೃತೇ ಜಾತವೇದವು ಲೋಕಮಗ್ನೇ ಕೃಣವಸ್ಯೋನಂ ಅಶ್ವಿನಂ ಸಪುತ್ರಿಣಂ ವೀರವಂತಂ ಗೋಮಂತಂ ರಯಿನ್ನಃ ಚಲೇ ಸ್ವಸ್ತಿ.
ಹರಿಃ ಓಂ. ಅಥ ಸೌಭಾಗ್ಯ ಸೂಕ್ತಂ.
ಶ್ರೀ ಗುರುಭ್ಯೋ ನಮಃ. ಹರಿಃ ಓಂ. ಹಿಂಗೃಣ್ವತೇ ವಾಸುಪತ್ನೇ ವಸೋ ನಾಂ ವಸಮಿಚ್ಛಂತೇ ಮನಸಾಭ್ಯಾಗಾತ್ ದುಹಾಮಶ್ವೇಭ್ಯಾಂ ವಯೋ ಅಗ್ನೇಯಂ ಸಾವರ್ಧತಾ ಮಹತೇ ಸೌಭಾಗಾಯ ಸಮಿದ್ದಶ್ಚಾಶ್ರಯಮಾನ ಪುರಸ್ತಾದ್ ಬ್ರಹ್ಮಾವನ್ವಾನೋ ಅಜರಂ ಸುವೀರಂ ಆರೇ ಅಸ್ಮದವಾತಿಂ ಬಾಧಾಮಾನವುಚ್ಛ್ರಾಯ ಸ್ವಮಹತೇ ಸೌಭಾಗಾಯ ವನಸ್ಪತೇ ಶತವಲ್ಷೋ ವಿರೋಹ ಸಹಸ್ರಾವಲ್ಷಾಪಿ ವಯಂ ರೋಹೇಮ ಯನ್ ತ್ವಾಮಯಂ ಸ್ವದೇತಿಸ್ತೇಜಮಾನ ಪ್ರಣಿನಾಯ ಮಹತೇ ಸೌಭಾಗಾಯ ಇಂದುರ್ದೇವಾನಾಮುಪಾಸಕ್ಯಮಾಯನ್ ಸಹಸ್ರಾಧಾರ ಪವತೇ ಮದಾಯ ನೃಭಿಸ್ತವಾನೋ ಅನುದಾಮ ಪೂರ್ವಮಗನ್ನಿಂದ್ರಂ ಮಹತೇ ಸೌಭಾಗಾಯ ಅಸ್ಯಪೇ ಭಕ್ಷುಮತ ಪ್ರಸ್ಥಿತಸ್ಯೇಂದ್ರ ಸೋಮಸ್ಯ ವರಮಾಸುತಸ್ಯ
स्वस्तिदावना सामादय स्वार्वाचेनो रेवते सोभागाय घृता दुर्लप्तम् मदो मत्सुवर्णम् धनञ्जयम् दरुणम् दारयिष्ण रणत्सपत्ना ददाराम् च गृण्वदारो हमाम् महते